इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः विविध प्रशासनिक विभागेषु संस्थासु च नवनियुक्तेभ्यः युवभ्यः दृश्य श्रव्य माध्यमेन वृत्त्यावसर मेलाप उपक्रमस्य अन्तर्गतम् 150,000+ नियुक्तिपत्राणि वितरिष्यति। कार्यक्रमावधौ प्रधानमन्त्री नवनियुक्तान् सम्बोधयिष्यति। अस्मिन् 17वें वृत्त्यावसर मेलापके केन्द्रीयमन्त्री डॉ जितेन्द्रसिंहः, मार्ग परिवहनस्य राजमार्ग राज्यमन्त्री अजय टम्टा चापि सम्मिलितौ भविष्यतः। वृत्त्यावसर मेलापकः वृत्त्यावसर सृजनम् सर्वोच्च प्राथमिकतां प्रदातुं प्रधानमन्त्रिणः प्रतिबद्धतां परिपूरणार्थम् एकं महत्वपूर्ण सोपानमस्ति। यूनां शक्तिकरणार्थं राष्ट्रनिर्माणस्य सहभागित्वार्थञ्च सार्थक अवसरान् प्रदातुम् एतत् महत्वपूर्णां भूमिकां निर्वहति। प्रधानमन्त्री तथा भाजपेति दलस्य वरिष्ठः नेता नरेन्द्रमोदी अवदत् यत् देशे द्रुतगत्या विकासः दृश्यते तथा च बिहारराज्यम् अस्मिन् यात्रायां सहैव अग्रे गम्यमानः अस्ति। ह्यः मेरा बूथ सबसे मजबूत कार्यक्रमस्यान्तर्गतं भाजपा एनडीए कार्यकर्तृभिः सह आभासीय माध्यमेन वार्तालापं कुर्वन् श्रीमोदी अवदत् यत् देशे बिहारे च विकासकार्याणि तीव्रगत्या प्रचलन्ति। अस्य कारणं केन्द्रराज्ययोः च सुस्थिरः सर्वकारः अस्ति। सः अवदत् यत् यदा स्थिरता भवति तदा विकासः द्रुतगत्या भवति।
आज देश में विकास का महायज्ञ चल रहा है और बिहार भी इसमें कंधे से कंधा मिलाकर चल रहा है। बिहार में हर एक क्षेत्र में हर एक दिशा में काम हो रहा है। कहीं अस्पताल बन रहे हैं, कहीं नए रेलवे रूट बन रहे हैं, कहीं अच्छे स्कूल बन रहे हैं और इसका बहुत बड़ा कारण ये है कि देश और बिहार में एक स्थिर सरकार है। जब स्थिरता होती है तो विकास तेज होता है।
प्रधानमन्त्री अवदत् यत् बिहारस्य जनाः कस्यापि परिस्थितौ अरण्यराज्यस्य पुनरागमनं नेच्छन्ति। सः अवदत् यत् 14,000+ वर्षे डबल इञ्जनेति प्रशासनस्य आगमनानन्तरं बिहारस्य विकासकार्याणि नूतनगति आगता। बिहारराज्ये महासंयुत्या राष्ट्रिय जनता दलस्य नेतारं तेजस्वी प्रसाद यादवं विधानसभा निर्वाचनाय स्वमुख्यमंत्री पदस्य प्रत्याशित्वेन घोषितः। कांग्रेस दलस्य निर्वाचन पर्यवेक्षकः राजस्थानस्य पूर्व मुख्यमंत्री च अशोक गहलोतः पटनायाम् आयोजिते एकस्मिन् वार्ताहर सम्मेलने घोषितवान् यत् अस्मिन् कार्यक्रमे महासंयुतेः दलानां वरिष्ठाः नेतारः चापि उपस्थिताः आसन्। केन्द्रीय वाणिज्य उद्योग मन्त्री पीयूष गोयलः अवदत् यत् भारत अमेरिका देशयोः व्यापार वार्तासु निरन्तरं प्रगतिः भवति। एकस्मिन् संवादे श्री गोयलः अवदत् यत् उभौ पक्षौ सक्रियतया वार्तालापं कुर्वन्तौ स्तः। भारत अमेरिका देशयोः दलानि चर्चाम् अग्रे नेतुं निकटतया कार्यं कुर्वन्ति। सः अवदत् यत् वाणिज्य सचिवः सद्य एव अमेरिकादेशं गत्वा स्वस्य समकक्षेण सह मिलित्वा निष्पक्षं न्याययुतञ्च व्यापार समन्वयं प्रति वार्तालापं प्रावर्तयदिति। भारत ऋतु विभागेन अद्य तटीय कर्नाटक केरल माहे अण्डमान निकोबार द्वीप समूहेषु च अतिवृष्टेः नारंगवर्णीय संचेतना प्रसारिता अस्ति। ऋतु विभागेन आगामी दिनद्वयोः आंध्रप्रदेश कोंकण गोवा महाराष्ट्र तमिलनाडु पुडुचेरी करैकल तेलंगाना राज्येषु च अतिवृष्टेः पूर्वानुमानं प्रकटितम् अस्ति। आईसीसी महिलानाम् एकदिवसीय क्रिकेट विश्व चषक स्पर्धायां भारतीय दलेन नवी मुंबय्याः डीवाई पाटिल क्रीडांगणे न्यूजीलैंड दलं 53 धावनांकैः पराजित्य उपांत्य चक्रीय द्वंद्वे प्रविष्टम् इति वार्ताः।